इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। नीट परीक्षा प्रकरणमधिकृत्य द्वयोरेव सदनयोः कार्याचरणं बाधितं संजातम्। लोकसभा अद्य पूर्णदिवसाय स्थगिता संजाता। झारखण्ड उच्च न्यायालयः अद्य हेमन्त सोरेनाय भूमि प्रवञ्चन प्रकरणेन सम्पृक्ते धनशोधन प्रकरणे कारावासमुक्तिं प्रायच्छत्। राष्ट्रिय राजधान्यां दिल्ल्यां वृष्टिकारणेन अनेकानि स्थलानि जलाधिक्येन प्रपूरितानि संजातानि। अपि च महिला क्रिकेट स्पर्धायाः प्रथमे दिने एमए चिदम्बरम क्रिकेट क्रीडांगणे भारत साउथ अफ्रीका इत्यनयोः मध्ये जायमाने क्रीडा द्वन्द्वे भारतं चतस्रणां क्रीडिकानां हानौ पञ्चविंशत्यधिक पञ्चशतं धावनांकैः सह क्रीडति। अथ वार्ताः विस्तरेण। नीट परीक्षायां कथिता नियमिततया विषये विपक्षिदलानां विरोधस्य कारणेन अद्य लोकसभा आदिवसं स्थगिता संजाता। राज्यसभा अपि त्रिवारं स्थगिता संजाता। प्रथमस्थगनस्य अनन्तरं यदा मध्याह्ने द्वादशवादने लोकसभायाः कार्याचरणं समारब्धं तदा कांग्रेसदलस्य सदस्याः अस्मिन् विषये शिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य त्यागपत्रस्य याचनं कुर्वन्तः उच्चैः उद्घोषितुम् आरब्धवन्तः। कांग्रेस द्रविडामुनेत्र कड़गम डीएमके तृणमूल कांग्रेस समाजवादी पार्टी चेत्यादीनां सांसदाः सदनमध्ये समागतवन्तः। लोकसभायाः अध्यक्षः ओम बिरला इत्यनेन प्रोक्तं यत् अस्य विषयस्य विचारार्थं एका समितिः निर्मिता अस्ति। सः अवदत् यत् राष्ट्रपत्याभिभाषणस्य धन्यवाद प्रस्तावे चर्चायाः समये सदस्याः एतत् विषयम् उत्थापयितुं शक्नुवन्ति। नीट विषये विपक्षस्य चर्चायाः आग्रहम् अंगीकृत्य संसदीय कार्याणां मन्त्री किरेन रिजिजुः उक्तवान् यत् अस्मिन् काले राष्ट्रपतिनः धन्यवाद भाषणं संसदस्य द्वयोः सदनयोः संयुक्तसभायां पूर्वनिर्धारितं भवति। तस्मिन् काले किमपि चर्चितुम् आज्ञाप्रदानस्य परम्परा न अस्ति। नीट विषये राज्यसभायाम् अपि कोलाहलः अभवत्। प्रथमस्थगनस्य अनन्तरं यदा मध्याह्ने द्वादशवादने सदनकार्याचरणं पुनः समारब्धम् अभवत् तदा पुनः कांग्रेस टीएमसी डीएमके आम आदमी पार्टी चेत्यादीनि विपक्षिदलानि पुनः नीट विषये सर्वकारस्य विरुद्धम् उच्चैर्घोषं कर्तुं प्रारभन्। राष्ट्रपति सम्बोधने धन्यवाद प्रस्तावस्य विषये चर्चां निरन्तरं कुर्वन् भाजपा सांसदः सुधांशु त्रिवेदी सर्वकारस्य उपलब्धीनां प्रकाशनं कृतवान्। पूर्व प्रधानमंत्री जेडीएस नेता च एचडी देवगौड़ा इत्यनेन उक्तं यत् अन्वेषणं विना उत्तरदायित्वं निर्धारयितुं न शक्यते। सः अवदत् यत् सर्वकारेण केन्द्रीय अन्वेषण विभागाय अनुसन्धानस्य आदेशः पूर्वमेव प्रदत्तः अस्ति, अतः सर्वैः प्रतिवेदनस्य प्रतीक्षा कर्तव्या एव। झारखण्डस्य उच्च न्यायालयः अद्य राज्यस्य पूर्व मुख्यमन्त्रिणे हेमन्त सोरेनाय भूमि प्रवञ्चन प्रकरणेन सम्पृक्ते धनशोधन प्रकरणे कारावासात् मुक्तिं प्रायच्छत्। झारखण्ड मुक्ति मोर्चा इत्यस्य कार्यकारी अध्यक्षः सोरेनः प्रवर्तन निदेशालयेन धनशोधन प्रकरणे अन्वीक्षणाय अस्य वर्षस्य जनवर्याः एकत्रिंशत् दिनांके निगडितः आसीत्। अष्टचत्वारिंशत् वर्षीयः सोरेनः अस्मिन् समये रांचीनगरस्य बिरसामुण्डा कारावासे बन्धकत्वेन अस्ति। उच्चन्यायालयेन सोरेनस्य बन्धनमुक्तियाचिकाम् अधिकृत्य स्वकीयः निर्णयः जूनमासस्य त्रयोदशदिनांके सुरक्षितः कृतः आसीत्। राष्ट्रिय राजधान्यां दिल्ल्यां गुरुवासरस्य रात्र्यारभ्य प्रवर्तमानेन वृष्टिकारणेन अनेकानि स्थलानि जलाधिक्येन प्रपूरितानि संजातानि। ऋतुविज्ञान विभागः प्रोक्तवान् यत् विगतासु चतुर्विंशतिहोरासु दिल्ल्याम् अष्टशताधिकद्विशतमिलीमीटर परिमिता वृष्टिः संजाता अस्ति। विगतासु चतुर्विंशतिहोरासु एव सामान्यतः त्रिगुणित वृष्टिपातेन जनाः कष्टपीडिताः अभवन्। यद्यपि जनाः द्विमासात् प्रवर्तितेन भीषणातपेन पीडिताः सन्ति, यस्मात् विमुच्य ते अधुना आनन्दम् अन्वभवन्। शुक्रवासरे दिल्ल्यां न्यूनतम तापमानं 24.7 डिग्री सेल्सियस इति संसूचितम्, यत् सामान्यतः 3.2 डिग्री सेल्सियस मितं न्यूनम् आसीत्। राष्ट्रिय राजधान्यां विगतेष् 15 वर्षेष् कदाप्यपि सम्पूर्णे जूनमासे द्विशतं मिलीमीटर परिमितं वृष्टिपातं नाभवत्। दिल्ल्याः राज्यपालः वीके सक्सेना अद्य दिल्ल्यां जलप्लावस्य स्थितिं समीक्षितुं सर्वैः अभिकरणैः सह तात्कालिकोपवेशनम् अकरोत्। अस्मिन् उपवेशने दिल्ली जलप्राधिकरणं सिंचनविभागः खाद्यविभागः दिल्ली नगरनिगमः दिल्ल्यारक्षिबलं दिल्ली विकासप्राधिकरणं राष्ट्रिय आपद विमोचनबलं चेत्यादयः उपस्थिताः सन्ति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य पूर्व प्रधानमन्त्रिणः पीवी नरसिंह रावस्य इत्यस्य जन्मजयन्त्यावसरे तस्मै श्रद्धांजलिं प्रदत्तवान्। सार्वजनिक सन्देशपटले श्रीमोदी अवदत् यत् पीवी नरसिंह राववर्यः तस्य नेतृत्व बुद्धिमते अधिकृत्य संस्मरिष्यते। प्रधानमन्त्रिणा प्रोक्तं यत् मरणोपरान्तं देशसेवायै तस्मै अस्य वर्षस्य प्रारम्भे भारतरत्नेति पुरस्कारेण सम्मानितं कुर्वन् भारतसर्वकारः गौरवम् अनुभवति। जम्वाः आधारशिविरात् अद्य प्रातः प्रवर्तमानम् अमरनाथ तीर्थयात्रिणां प्रथमदलम् अद्य अपराह्ने सुदृढ सुरक्षायाः मध्ये कश्मीरे प्रवेशम् अकरोत्। तीर्थयात्रिणां कुलगामक्षेत्रस्य जनपदाधिकारी राज्यप्रशासनाधिकारिणः पर्यटनविभागाधिकारिणः च स्वागतम् अकुर्वन्। अस्य वर्षस्य अमरनाथयात्रा श्वः बालताल चन्दनवाड़ी मार्गयोः समारप्स्यते। उपराज्यपालः मनोज सिन्हा अद्य प्रातः बम्बम बोले जय भोलेनाथ चेत्यादिभिः उद्घोषैः सह वार्षिक अमरनाथ यात्रायाः समारम्भम् अकरोत्। तीर्थयात्रिषु देशस्य विभिन्न भागानां जनाः सम्मिलिताः सन्ति। अस्मिन् दले त्र्यधिक षट्शतोत्तर चतुस्सहस्रं तीर्थयात्रिणः सन्ति, येष् द्वात्रिंशदुत्तर षट्शताधिक त्रिसहस्रं पुरूषाः, एकादशोत्तर एकादशशतं महिलाः, नव बालकाः, सप्तत्रिंशदधिक द्विशतं साधव च सम्मिलिताः सन्ति। राष्ट्रपति द्रौपदी मुर्मुवर्या अभिभाषणे धन्यवाद प्रस्तावस्य विषये चर्चा अद्य राज्यसभायां नीट प्रकरणे विपक्षस्य कोलाहलस्य मध्ये समारब्धा चर्चायै एकविंशति होरायाः समयः एव निर्धारितः आसीत्। चर्चायाः आरम्भं कुर्वन् भाजपादलस्य सांसदः सुधांशु त्रिवेदी विगत दशवर्षेष् नरेन्द्रमोदी सर्वकारस्य सफलतायाः उल्लेखं कृतवान्। सद्य समाप्तस्य लोकसभा निर्वाचनस्य विषये सः अवदत् यत् दक्षिणराज्येष् एनडीए पक्षस्य मतभागः कांग्रेस पक्षस्य अपेक्षया अधिकः अस्ति। त्रिवेदी महोदयः अवदत् यत् कांग्रेस दलं तृतीय प्रयासे अपि लोकसभायां बहुमतं प्राप्तुम् असफलम् अभवत्। सः अवदत् यत् भारतं ब्रिटेनं परित्यज्य विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था सञ्जाता। श्री त्रिवेदी इत्यनेन प्रोक्तं यत् एनडीए सर्वकारेण चतुस्त्रिंशत् कोटि एलईडी गोलदीपाः वितरिताः सन्ति। सहैव नवीकरणीय ऊर्जायाः दिशि गन्तुं सर्वकारः प्रतिबद्धः अस्ति। चर्चायां भाजपा दलस्य सांसदः राकेश सिन्हा भीमसिंहः, वाईएसआर कांग्रेस दलस्य सांसदः गोला बाबूराव चेत्यादयः सदस्याः अपि भागं गृहीतवन्तः। शिक्षामन्त्री धर्मेन्द्र प्रधानः अद्य नीट परीक्षार्थिभ्यः आश्वासनं प्रायच्छत् यत् अपराधिणः विरुध्य कठोरं कार्याचरणं विधास्यते। संसद बहिः पत्रकारान् सम्बोधयन् सः प्रोक्तवान् यत् सर्वकारः अस्मिन् विषये संवेदनशीलः अस्ति। श्रीप्रधानः विद्यार्थिभ्यः अभिभावकेभ्यश्च आश्वासनं प्रायच्छत् यत् सर्वमपि आवश्यकं कार्याचरणं विधास्यते। सः प्रोक्तवान् यत् सर्वकारः सदने कस्मिन्नपि प्रकरणे चर्चायै तत्परः अस्ति। भारतीय न्याय संहिता विंशति त्रयोविंशति, भारतीय नागरिक सुरक्षा संहिता विंशति त्रयोविंशति, भारतीय साक्षर अधिनियम विंशति त्रयोविंशति इत्यादीनि त्रीणि नूतन अपराध विधेयकानि अग्रिममासस्य एकदिनांकात् क्रियान्वितानि भविष्यन्ति। महिला क्रिकेट स्पर्धायाः प्रथमे दिने एमए चिदम्बरम क्रिकेट क्रीडांगणे भारत साउथ अफ्रीका इत्यनयोः मध्ये जायमाने क्रिकेट क्रीडा द्वन्द्वे भारतं चतस्रणां क्रीडिकानां हानौ पञ्चविंशत्यधिक पञ्चशतं धावनांके सह क्रीडति इति वार्ताः।